वदतु भगिनि.
ॐ सहनाभवतु, सहना भुनक्तु, सह वीर्यं करवावहै, तेजस्विनामतीतमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः.
हरिः ओम्. श्रीगुरुभ्यो नमः. गुरुब्रह्म गुरुविष्णु गुरुदेवो महेश्वर गुरुसाक्षात् परब्रह्मं तस्मै श्रीगुरवे नमः. गुर्वे सर्वलोकानां विषये भवरोहिणां निधये सर्वविद्याणां श्री दक्षिणामूर्तये नमो नमः. हरि ओम्. ओम् तत्सत्. हेयमन्त्रं
संस्कृतं नित्यं वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्, संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम्. हिन्दुधर्मं समाजं च पवित्रां संरक्षणनु कुर्याम विश्वं शान्तिं जगद्धितं. वन्दे संस्कृतमातरम्, वन्दे संस्कृतमातरम्, वन्दे भारतमातरम्.
ॐ तत्सत्. वदतु मुनित्रयं. का का वदति मुनित्रयम्? इट् वास् मीनामोहन् भगिनी नो नाट् देर्. एनाक्षरसमाप्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मिं मुनित्रयम्. गुरुरेव गतिवत्.
गुरुरेव गति गुरुमेव भजे, गुरुनैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरु. ॐ श्री गुरुभ्यो नमः. हरिः ओम्.
अत्युत्तमम्, उत्तमरीत्या गीतं गायति. सम्यक्, उत्तमं. नकारान्तपुल्लिङ्ग सर्वनाम शब्दः, पुल्लिङ्गे स्त्रीलिङ्गे सातेताः, नपुंसकलिङ्गे तत्तेतानि. सिमिलर् टु देट् ईस् एतत् शब्दः. And the makaranta kim shabdah, we'll go through very fast. We'll come to the actual subject. Okay, let us start with Gita Bhagini.
Come
on, open your videos. Why don't you open your maja nahi aata hai. I'm not getting motivated. I want to see your faces. I also will open it. Since we have got the facility, why we should not enjoy that?
Sir, so not audible anything.
Everybody.
Not audible.
There is some network issue. Can you hear me?
The screen is not sharing, sir. Okay, Mahode. Screen share. See,
there is some network issue. Supposing this time also we quit, unfortunately. We'll try to continue as far as possible. Supposing this time we either of us, especially my, from my side only the issue is there, we'll continue the class next Sunday. Okay, we'll see that,
sir.
Without any, because I'm in Chennai here, some network problem is there, because all every evening. Oh, somebody wanted to talk something. Yes,
yeah.
Tell
sir,
me
sir,
somebody wanted to talk Google something.
Meet? Yeah, Google Meet.
Tell.
Is it possible to come Google Meet?
Yes, I can come. If you all, 1 minute. But some of you doesn't have the link, is it not? Okay, I'll do one thing. I'll send the link in the Prathama Sariya group. You can come on the Google Meet. But there also I'm finding it difficult. The network issue.
Okay.
Hello. There is a network issue. Sir. Supposing we might allow me to talk Vidya Kumari Begini. Supposing we meet with same problem in another 5 or 10 minutes time, we'll quit the class now. Next Sunday we'll meet. Okay. Only one request is you come half an hour before. We'll have a, that is, we'll add this loss by adding half an hour more in the, every next class. That is, instead of 1.5 hours, the class will be for 2 hours. Okay? We'll cover the subject. Now, let me try maximum level best. Sharing, I'm finding it difficult. Let me try. No, the screen is shared. Hello?
Yes.
Hello?
It's coming, sir. Hello?
Yes. Fine.
Yeah, it's coming.
So that was your prayer. Hello. 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 Can you hear me?
Mahodaya, idani shruyate mahodaya.
Can you hear me?
Yes, sir.
Yes, mahodaya.
Shruyate va?
Oh, mahodaya.
So what, one of you talk at it. Yeah.
Your voice is breaking, so, sir.
We'll,
if the screen is visible, your voice is not audible we'll, properly. Some network issue.
లేకపోతే చప్పగా ఉంటుంది అది లేకపోతే బాగుండేది ఒక రోజు
ఉంటాయి నాకు చాలా ఇష్టం I think sir is left. Not okay. Not so
shall we seen here. 10 more minutes? We can practice, huh? Right? Meanwhile, we can also practice. We can also try to vayamapi prayasnam kartum shakyate. Kimapi sambhashanam kartum.
But we are new to this class. We don't know to speak in Sanskrit also.
Tadhapi vayam prayasnam kartum shakyate. Sambhashanasya prarambhe kim kartum shakyate kopi agachati che vayam किं प्रश्नम् उपयुज्य सम्भाषणं प्रारम्भं कुर्मः अहं सो एण्ड् सो आर् नेम् विल् ट्रै टु टेल् एण्ड् वाट्स् युर् नेम् हौ आर् यू लैक् देट् वि नार्मलि ट्रै टु स्टार्ट् इसन्ट् इट् सो लेट् अस् ट्रै टु कान्वर्स् दट् वे वन् आफ्टर् द अदर् लेट् अस् ट्रै टु इण्ट्रोड्यूस् आर् सेल्स् फस्ट्
विदौट्
वेस्टिङ्ग् द टैम्
ओके डन्
अस्तु
मम नाम विद्या अहं गृहिणी अस्मि अहं बेङ्गलूरुनगरे वसामि एम् ऐ आडिबल्
उत्तमं
बट् पद्मजा भगिनी एण्ड् विद्या नाटिका मीनाक्षी भगिनी प्लीस् स्विच् आन् युवर् वीडियो सो देट् वी केन् सी यु अस् वेल्
ओ योर् वीडियोस् आर् आन् क्षम्यताम् अहं मम दूरवाणी उपयुज्य लागिन् करोमि अतः अहं न जानामि
दूरवाण्यमेव आगच्छति वीडियो उद्घाटयितुं
ऐ एम् आल्सो यूसिङ्ग् मै मोबैल् ओन्लि
अहमपि दूरवाण्यमेव
यु आल् केन् स्पीक् वेल् संस्कृत
तथा नास्ति भगिनी प्रारम्भे किञ्चित्
हौ डिड् यू लर्न् टु समटैम्स् वाट् एवर् सर् टेल्स् इन् संस्कृत आल्सो ऐ काण्ट् रियलि अण्डर्स्टाण्ड्
किञ्चित् वेगेन गच्छति चेत् स्वल्प कष्टं भवति
ओके मम नाम मीना मे अहम् एर्नाकुलं कोचिन् नगरे वसामि केरला
सम्यक् भगिनि ब्यूटिफुल् प्लेस् बहु सुन्दर प्रान्तम् अस्ति
पद्मजा भगिनी
हैदराबाद् नगरे वसामि अहम्
ओके ओके विद्या भगिनी
अहं विजयपुरनगरे वसामि कर्णाटके
कर्णाटके ओके
अहमपि गृहिणी अस्मि गृहिणी अस्मि अहं
गृहिणी हौस् वैफ्
भवती कार्यं करोति वा
बिस्नेस् करोमि अहं वेजिटेरियन् रेस्टोरेण्ट्
वाव् एड्रेस् आगच्छति चेत्
ओ ओके ओके हौ टु टेल् प्लीस् इन्फार्म्
कृपया पूर्वमेव उक्त्वा आगच्छतु यु केन् इन्फार्म् इन्फार्म् मी प्रयर् टु युर् कमिङ्ग् लैक् देट्
यस्
विद्यानदी भगिनी कम्प्लीटेड् हर् कोविद आल्सो ऐ एम् जस्ट् ट्रैङ्ग् टु लर्न् आफ्टर् वन् इयर्स् गेप्
परन्तु अहं सर्वं विस्मृतवती अस्मि भगिनि
या कोविद इस् द हैयेस्ट् इन् फोर् ग्रेड् या सो नो डौट् यु आर् आल् टैक् टाकिङ्ग् एण्ड् वाट् अबौट् यू विद्या भगिनी
अहं प्रवेश एण्ड् परिचय
ओके ओके
इदानीं परिचयपरीक्षा अभवत् वा भवत्याः विद्या भगिनी?
परिचय
परिचय इदानीम् अभवत् वा?
न
लिखति वा?
न आगस्ट्
आगस्ट् मासे लिखति.
महोदय किमपि सन्देशं न प्रे न प्रेषितवान्
न इतोपि तदेव आगतः.
इदानीं
वयं सर्वे
वदतु वदतु भवती एव
वयं सर्वे सर्वनाम शब्दरूपाणि अभ्यासं कुर्मः वा किम्?
अस्तु भगिनि शब्दरूप अभ्यासात् पूर्वं किञ्चित् सम्भाषणं सम्भाषणेन प्रयत्नं कुर्मः. अहं किमपि प्रश्नां पृच्छामि चेत् भवती वदतु, भवती कोऽपि प्रश्नां पृच्छतु, एवं प्रयत्नं कर्तुं शक्नुमः किल.
सुधा भालन् मीनामोहन् भगिन्यः भगिन्यौ अपि अत्र स्तः, परन्तु ते किमपि न उक्तवत्यौ. इतोपि
प्रायः गृहकार्ये व्यस्ता स्मः. न
ओ ये मीनामोहन् भगिनी अस्ति, मीनाक्षी
व्यस्ता मीनाक्षी भगिनी सुधा बालि
मीनाक्षी भगिनी मीनाक्षी भगिनी स्विच् आन् द वीडियो प्लीज़
कृपया वीडियो अपि
सुधा बालन् भगिनी
क्षम्यतां दोषाः सन्ति अहं सम्यक् न जानामि
परन्तु
अभ्यासार्थम्
एव आगतवत्यः खलु.
नमस्कारः सुधाबालन्
भगिनी नमस्कारः स्वागतम्.
न
श्रूयते भगिनी
न श्रूयते
अन्म्यूट्
अन्म्यूट् मध्ये एव अस्ति तत्र अहं न जानामि किमर्थं वाय्स् न आगच्छति
नेट्वर्क् इश्यूस्
यु हेव् समन् ओवर् देर् कृपया तां पृच्छतु किमर्थं न आगच्छति वाय्स् वि आर् नाट् एबल् टु हियर् यु सुधा बालन् भगिनि
you have already unmuted.
I unmuted but it's coming in waves, the voice is coming in waves. I have
now
to fill in the blank.
Now it's absolutely
no,
fine.
It's clear, it's fine.
Astu Meenakshi bhagini bhavati api agachati va?
सा प्रायः सा एव सन्देशं प्रेषितवती अस्ति प्रायः. अहं ट्रावेल् मध्ये अस्मि इति सा एव.
अस्तु वयं सम्भाषणं प्रारम्भं कुर्मः, सा आगच्छति चेत् सा अपि वक्तुं शक्नोति. नमस्कारः विद्या भगिनी, भवती कुत्र वसति?
अहं बेङ्गलूरुनगरे कर्णाटक राज्ये बेङ्गलूरुनगरे.
भवती अपि बेङ्गलूरुनगरे, विद्यानदिक् भगिनी अपि बेङ्गलूरुनगरे वसति.
विद्यानदिक् भगिनी विजयनगरे
विजयपुरनगरे.
कुत्र अस्ति तद्
विजयपुरनगरः इत्युक्ते बिजापुर् कर्णाटके अस्ति, महाराष्ट्रस्य समीपे.
महाराष्ट्र कर्णाटक बोर्डर्, कर्णाटक महाराष्ट्र बोर्डर्.
एवं वा? अस्तु.
मदर् टङ्ग् इव मदर् टङ्ग्
कन्नड.
कन्नड
मदर् टङ्ग् what do we say in Sanskrit? Matuhu?
Vidya.
मातृभाषा कन्नड विद्या भगिन्याः मातृभाषा अपि कन्नड दीनमोहन भगिन्याः मातृभाषा मलयालम्
मलयालमेव मातृभाषा मम मातृभाषा मलयालम् परन्तु मम तुळु तुळु अपि basically our husband's people are in all in Karnataka.
And so,
but
I know Tulu.
I don't know Kannada. Tulu I know very well.
Palan bhagini va. Tulu api janati ka. Uttamam. Bhavatya ha.
Vidya bhagini Tulu
ma. Tulu I know.
सुधापालन् भगिनी कुत्र वसति
अहं चेन्नै चेन्नै
ओ
चेन्नै वसामि
चेन्नै
चेन्नै नगरे वसा
चेन्नै नगरे वदति
चेन्नै नगरे
तमिळ्
तमिळ् ओके
अस्मिन् वर्षे चेन्नै नगरे आतपः कथमस्ति
weather
let me try to translate if it is wrong please correct me asmin varshe this year in this year atapah katham asti how is the heat temperatures temperature or heat atapah
sun
one month
just like asmin
varshe usnam
asmin varshe अस्मिन् वर्षे केरला आतप जास्ति
केरलानगरे आतप जास्ति वा केरलानगरे शक्यते वा संस्कृतभाषायां
वाट् टु टेल् इन् संस्कृत this conference room no if we touch something that goes then we have to join again
yah bangalur nagare varsha agachat
evam va
uttam
kinchit
atra api
very hot here in kochi very hot in here no rain at all
atra अत्र
वृष्टि नास्ति
वृष्टिः वृष्टिः
वृष्टि रैन्
सुधाबालन् वाट् ऐ वास् आस्किङ्ग् वाट् वास् शी सेयिङ्ग् ऐ कुडन्ट् हियर्
No, there is no rain in Cochin. Usually we get rain very often, but not at all raining in these days, and it's very, very hot.
Even much.
How is Bangalore?
Please translate.
Vidya Bhagini, can you please try to say that in Sanskritam?
Vidya Bhagini.
Atra vrushtihi nasti.
Cochin
Nagare. This year
Asmin Varshe
Bahu Vrishtih Nasti Bahu Na Swalpa Vrishtih Api Nasti
Ataha Swalpa Vrishtih
Kinshit
Ataha Atapaha Bahu Asti Savadati Eva Meva Kalu धन्यवादः सुधाबालन् भगिनी भवती किमपि उक्तवती वयं न शृणुमः सम्यक् न
शृणुमः गुड् एनफ् वोकाबुलरी टु स्पीक् इन् आई एम् लिसनिङ्ग्
try to say the same thing. We'll try to convert. That way also we can learn. We'll try to discuss yeah. on that.
Sambhashanam shrunanti.
Oh, Bhavati, mama sambhashanam. Asmakam sambhashanam shrunoti va.
Avastu.
Uttamam. Evameva karotu. Parantu kinchidapi prayatnam kartum shakyate chet karotu. Shrunoti iti upayujya bhavan kada vaktavyam if it is someone else who is doing shrunoti sa shrunotavyam
aham shrunomi
iti vaktavyam that's how we
vaktavyam means shrunomi
we need to say
vaktavyam aham shrunomi
vaktavyam means vadati is there right the same
yes.
Action if it has to be done that way we use the word vaktavyam
you have to
bhavati vadati vaktavyam like that
Meena Mahan Bhagini Mama Mata Pitarau Api Tulu Jananti Aham Udupi Nagare Mama Janmaha Bhavat Kechana Vasha Paryantam Udupi Nagare Vayam Smaha Ataha Mama Pata